नमो भगवती वासुदेवाय। षष्ठोध्याय श्रीमद्भगवद्गीता ध्यान योग श्री भगवान उवाच। अनाश्रित कर्म फलं कार्यं कर्म करोति च स सन्यासी च योगी च न निरग्निर्न चाक्रिय जं सन्यासमिति प्राहुर्योगं तं विद्धि पांडव नस्त संकल्पो योगी भवति कश्चन आरुक्खो मुनेर्योगं कर्म कारणमुच्यते योगारूढस्य तस्यैव समकारणमुच्यते यदा हि नेन्द्रियार्थेषु न कर्मसनुसज्जते सर्वसंकल्पसन्यासी योगारूढस्तदुच्यते। उद्धरेदात्मनात्मानम् आत्मानम् अवसादयेत् आत्मैव आत्मनो बन्धुरात्मैव रिपुरात्मनः बन्धुरात्मात्मनस्तस्य येनैवात्मात्मनाजितः अनात्मानस्तु शत्रुते वर्ततात्मैव शत्रुवत् जितात्मना प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयो ज्ञान विज्ञान तृप्तात्मा कुटस्थो विजितेन्द्रिय युक्त इत्युच्यते योगी समलोष्टाश्म कांचन सुनिर्मित्रार्जुदासीनं मध्यस्तद्देश्य बंधुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते। योगी युञ्जीत सततमात्मानं रहसि स्थितः एकाकी जतचित्तात्मा निराशीरपरिग्रह शुचौ देशे प्रतिष्ठात्व स्थिरमा क्षणमात्मनः न तु श्रितं नातिनीचं चेलाजीनकुशोत्तरं तत्रैकाग्रमनः कृत्वा जतचित्रेन्द्रियक्रियः उपविशासने युञ्जद् योगमात्मविशुद्धये समं कायशिरो ग्रीवं धारयन्नचलं स्थिरः संप्रेक्ष्य नासिकाग्रं शं दिशश्चानवलोकयन् प्रशान्तात्मा विगतभिर्ब्रह्मचारी व्रते स्थितः मनः संयम्यमच्चित्तु युक्त आशित मत्पर युञ्जन्नेवं सदात्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत् संस्थामधिगच्छति। नतस्तु योगोऽस्ति न चैकान्तमनस्नतः न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः। यदा विनियतं चित्तम् आत्मन्नेवावतिष्ठति निष्प्रियः सर्वकामेभ्यो युक्त इत्युच्यते तदा यथा दीपो निवातस्थो निङ्गते सोपमा स्मृता योगिनो जदचित्तस्य युञ्जतो योगमात्मनः यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यम् अतीन्द्रियं वेत्ति यत्र न चैवायं स्थितः चलति तत्ततः यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः जस्मिन् स्थितो न दुःखेन गुरुणापि विचलते। तङ्विद्याद् दुःखसंयोग वियोगसङ्गितं सा निश्चयेन युक्तव्यो योगुनिर्भिन्नचेतसा। सङ्कल्पप्रोभान् कामान् त्यक्त्वा सर्वान् अशेषतः मनःशैवेन्द्रियग्रामं विनियम्य समन्ततः। शनैः शनैरुपरमेदि बुद्ध्या धृतिगृहीतया आत्मसंस्तङ्गमनः कृत्वा न किञ्चिदपि चिन्तयेत्। यतो यतो निश्चलति मनश्चञ्चलमस्थिरं ततस्ततो नियमेतदात्मन्येव वशङ्गनये। प्रशान्तमनसं ध्येनं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतम् अकलमसं जुञ्जन्नेवं सदात्मानं योगी विगतकलमस। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते। सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः। जो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति। सर्वभूतस्थितं जो मां भजत्येकत्वमाश्रितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते। आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः। अर्जुन उवाच योऽयं योगस्त्वया प्रकृतं सम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराहं। चञ्चलं हि मनः कृष्ण प्रमाथी बलवद्दृढं तस्याहं निग्रहं मन्ये वायुरिव सुदुष्करम्। श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येन च गृच्छति। असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु जतता शक्यो वाप्तुमुपायतः। अर्जुनोवाच अयति श्रद्धयोपेतु योगाच्चलति मानसः अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति। क्वचिन्नो भयविभ्रष्ट छिन्नाभ्रमिव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि। एतन्मे संशयं कृष्ण शत्रुमर्हशेषतः तदन्य संशयस्य चित्ता न जुपबद्धति। श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति। प्राप्य पुण्यकृतां लोकानुषित्वा शासति समः शुचीनां श्रीमताङ्गेः योगभ्रष्टो भियायते। अथवा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभतरं लोके जन्म जतीदृशम्। तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकं जतते च ततो भूय संसिद्धौ कुरु नन्दना। पूर्वाभ्यासेन तेनैव ह्रियते छवशो विषा जिज्ञासुरपि योगस्य शब्द ब्रह्माति वर्तते प्रजातिराद जतमानस्तु योगी संशुद्ध किलमिषः अनेक जन्म संसिद्धोस्ततो जाति परांगतिम् तपस्वि बोधिको योगी ज्ञानी भोपी मतोधिका कर्मी पश्चाधिको योगी तस्माद् योगी भवार्जुन योगिनामपि सर्वेषां मदगतेनान्तरात्मना श्रद्धावान् भजते जो मां स्वामी युक्ततमो मतः इति श्रीमहाभारते शतसहस्रां संहितायां वैयासिकं भीष्मपर्वणि श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगनाम षष्ठोऽध्यायः मध्यागरवर्तते।